उपायः बलवत्तरः संपादकः महाबलेश्वरभट्टः श्रृंगेरी रत्नगिरिराज्यस्य राजा रत्नवर्मा तस्य आस्थाने युक्तिवर्मा नाम कश्चित् मंत्री आसीत् युक्तिवर्मा तीक्ष्णमतिः आसीत् कदाचित् कोषागारतः सहस्रं रूप्यकाणि अपहृतानि अभवन् भटाः चोरस्य अन्वेषणार्थं प्रयत्नं कृतवन्तः किन्तु चोरः न लब्धः अन्ते राजा युक्तिवर्माणम् आहूय तीक्ष्णमतिः खलु भवान् अतः भवता चोरः गृहीतव्यः श्वः सूर्यास्ततः पूर्वम् एव एतत् कार्यं समापनीयम् अन्यथा भवता स्वयं आत्मार्पणं करणीयम् इति आदिष्टवान् राजाज्ञां कोऽपि तिरस्कर्तुं न अर्हति खलु अतः युक्तिवर्मा एतत् कार्यम् अङ्गीकुर्वन् महाराजम् उक्तवान् प्रभो श्वः सूर्यास्ततः पूर्वं चोरस्य ग्रहणार्थम् अहं विशेषप्रयत्नं करिष्यामि चोरग्रहणं कर्तुं न शक्यते चेत् आत्मार्पणं करिष्यामि यदि मम आत्मार्पणं भविष्यति तर्हि भवता मन्त्रिस्थाने सः चोरः एव नियोजनीयः यतः यम् अहं ग्रहीतुं न शक्नोमि सः चोरः निश्चयेन महामेधावी एव स्यात् तस्य नियोजनस्य उद्घोषणं भवता राजसभायां मम पुरतः एव करणीयम् तत् श्रुत्वा अहम् आत्मार्पणं करिष्यामि इति राजा एतत् अङ्गीकृतवान् अनन्तरदिने सूर्यास्तः अपि आसन्नः परन्तु युक्तिवर्मा चोरं ग्रहीतुं शक्तः न जातः सः राजसभां प्रविश्य राजानम् उद्दिश्य महाराज चोरं ग्रहीतुम् अहं न शक्तवान् अतः अहम् आत्मसमर्पणार्थं सिद्धः अस्मि मम पूर्वतनप्रार्थनायाः अनुगुणं भवान् मन्त्रिस्थाने तस्य चोरस्य नियोजनम् उद्घोषयतु तत् श्रुत्वा अहम् आत्मसमर्पणं करिष्यामि इति प्रार्थितवान् राजा तथैव उद्घोषणं कृतवान् एवं तर्हि इतः परम् अहं मन्त्रिस्थाने भविष्यामि इति चिन्तयन् कोषाधिकारी सन्तोषेण उत्थितवान् एतं गृहीत्वा भद्वा कारागारे स्थापयन्तु इति भटान् आदिष्टवान् मन्त्री युक्तिवर्मणः बुद्धिमत्तायाः प्रशंसां कुर्वन् राजा योग्यपारितोषिकदानेन तं संस्कृतवान्।